नमस्सर्वेभ्यः. अद्य चम्पूरामायणस्य बालकाण्डे चत्वारिंशः पाठः, नवम्बर् मासस्य पञ्चमः दिनाङ्कः. लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखा प्रवालं हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्विभेदशतधारधुरन्धरन्नः. गतसप्ताहे कक्षा आरब्धा, किन्तु आरम्भे एव विघ्नः अभूत् मम इण्टर्नेट् कनेक्टिविटि कारणेन. सो ततः पूर्वस्मिन् सप्ताहे मिथिलायाः माहात्म्यं दृष्टवन्तः. सीतामातुः सूतिकागेहमाहुः इति सीताविवाहस्य पणः जनकेन कृतः शिवधनुषः भङ्गः इति. विश्वामित्रः रामलक्ष्मणाभ्यां सह जनकस्य आस्थानमागत्य शिवधनुषः विषये जनकात् सर्वेपि शृण्वन्ति. ततः धनुरारोपणाय विश्वामित्रः रामम् आदिशति. एतावत् दृष्टवन्तः. अधुना अग्रे पश्यामः. केऽपि अनुवक्तुमिच्छन्ति? वेङ्कटेश्वरन् महोदय.
नमस्ते.
रामे बाहुबलं विवृण्वति.
रामे बाहुबलं विवृण्वति. धनुर्वंशे गुणारोपणम्
नाभूत् केवलमात्मना तिलकिते.
वंशेऽपि वैकर्तने आकृष्टं नितरां तदेव न परम्
सीतामनोपिद्रुतम् भङ्गस्तस्य न केवलं क्षितिभुजाम् दोस्तम्भदम्भस्य च.
रामे बाहुबलं विवृण्वति धनुर्वंशे गुण आरोपणम् नाभूत् केवलम् आत्मना तिलकिते वंशे अपि वैकर्तने आकृष्टं नितरां तदेव न परं सीता मनो अपि धृतम् भङ्गस्तस्य न केवलं क्षितिभुजां दोस्तम्भदम्भस्य च.
रामे बाहुबलं विवृण्वति धनुर्वंशे गुण आरोपणं नाभूत् केवलम् आत्मना तिलकिते वंशे अपि वैकर्तने आकृष्टं नितरां तदेव न परं सीतामनः अपि धृतम् भङ्गः तस्य न केवलं क्षितिभुजां दोस्तम्भदम्भस्य च. विशिष्टः श्लोकः. रामेण शिवधनुषः भङ्गं विवृणोति अयं श्लोकः. तत्र किं किं जातम् इति वर्णयति. रामे बाहुबलं विवृण्वति, तत् सतिसप्तम्यन्तः प्रयोगः. विवृण्वति सति, प्रकटयति सति, यदा रामः प्रकटितवान्. कस्मिन् विवृण्वति? रामे. किं विवृण्वति? बाहुबलं, स्वस्य भुजपराक्रमं. रामः लीलया शिवधनुः उन्नीय यदा स्वस्य भुजपराक्रमं प्रकटितवान्. सो रामे बाहुबलं विवृण्वति सति. किं जातं? धनुर्वंशे गुणारोपणं, तत्तु अभवदेव. धनुर्वंशे अग्रे भवति. केवलं नाभूत् इति अन्वयः. सो तत्तु अभूत्, तत्तु सर्वे जानन्ति. किं? धनुर्वंशे गुणारोपणम् अभूत्, किन्तु न केवलं तत्, अन्यदपि किमपि जातम् इति सः वर्णयति. सो केवलं नाभूत्. किं केवलं नाभूत्? गुणारोपणं. गुणः इत्यस्य मौर्वी, ज्या इत्यर्थः. धनुषः या तन्त्री भवति, द स्ट्रिङ्ग् आफ् द बो, तस्य मौर्वी, ज्या, गुणः इत्यादीनि नामानि. सो गुणस्य आरोपणं, रामः धनुः उन्नीय धनुषः गुणम् आरोपितवान्. ही स्ट्रङ्ग् द बो. सो धनुर्गुणारोपणं, कस्मिन् गुणारोपणं? धनुर्वंशे. धनुषः वंशः, अत्र वंशशब्दस्य वंशवृक्षः बेम्बू अथवा केन् इत्यर्थः. सो चापस्य वेणुदण्डे. सो यदा रामः धनुः उन्नीय ज्यां कृष्टवान् तदा धनुर्वंशे गुणारोपणम् अभूत्, अर्थात् चापस्य मौर्वीम् आकृष्य सः बद्धवान्. किन्तु नाभूत् केवलं, तत् केवलं न, अन्यदपि किमपि जातं. किं जातं? किन्तु वै आत्मना तिलकिते वंशेऽपि वैकर्तने. वैकर्तने वंशे, वैकर्तनं विकर्तनः सूर्यः. सो वैकर्तनः वंशः, सूर्यवंशः. सो सूर्यवंशे अपि अभूत्. कस्मि कीदृशे वंशे? तिलकिते. तिलकं नाम अलङ्कारः इत्यर्थः, अलङ्कारसूचकः तिलकशब्दः. सो तिलकिते अलङ्कृते. केन तिलकिते? आत्मना, रामेण. रामेण तिलकिते वैकर्तने वंशे अपि अभूत्. किम् अभूत्? गुणारोपणं. सो गुणारोपणम् इत्यत्र श्लेषः उपयुज्यते. सो धनुषः पक्षे गुणः चापस्य मौर्वी इत्यर्थः, वंशे सूर्यवंशस्य पक्षे तु गुणः नाम उत्तमगुणः, सद्गुणः, तत्र प्रतिष्ठा उत्पन्ना इत्यर्थः. रामेण यदा धनुषि गुणः आरोपितः तदैव तस्य शौर्येण तद्वंशस्य महिमा अपि महतीं प्रतिष्ठां प्राप. सो ही आल्सो ही स्ट्रङ्ग् द बो, द स्ट्रिङ्ग् आफ् द बो. आल्सो ही ब्राट् ग्रेट् फेम् एण्ड् प्रेस्टीज् टु हिस् फेमिलि. सो गुणारोपणं धनुर्वंशे, केवलं धनुर्वंशे न अभूत्, आत्मना तिलकिते वैकर्तने वंशे अपि अभूत्. सो यदा रामः स्वस्य भुजबलं, भुजपराक्रमं प्रकटयन् धनुः उन्नीय धनुः उन्नीतवान् तदा यथा धनुषः वेणुदण्डे गुणस्य नाम मौर्व्याः आरोपणम् अभूत्, तथैव रामेण अलङ्कृते सूर्यवंशे अपि गुणारोपणं नाम प्रतिष्ठा योजनम् अभूत्. एषः एतादृशः महावीरः सूर्यवंशे जातः इति सूर्यवंशस्यैव महत् गौरवम् उत्पन्नम् इत्यर्थः. श्लोकार्थः अवगतः. रामे बाहुबलं विवृण्वति, केवलं धनुर्वंशे गुणारोपणं नाभूत्, आत्मना तिलकिते वैकर्तने वंशे अपि गुणारोपणम् अभूत् इत्यर्थः. ओके, तथैव द्वितीयम् अस्ति आकृष्टं नितरां तदेव न. सो अत्रापि केवलम् इति अभूत् इत्यस्य अन्वयः अस्ति. आकृष्टम् आकृष्टं टु ड्रा आर् टु अट्राक्ट्. सो आकृष्टम् अभूत्. किम् आकृष्टम् अभूत्? तदेव नाम धनुषः दण्डः. यदा सः ज्यां बन्धुं बलं बलेन आकृष्टवान् तदा धनुषः दण्डः तेन आकृष्टः. ही फोर्स्फुलि पुल्स् द बो टु स्ट्रिङ्ग् इट्. किन्तु तदेव न आकृष्टं. बट् इट् वास् नाट् ओन्ली द धनुष् द बो विच् गाट् ड्रान्. किन्तु कथम् आकृष्टं? नितराम् अतिशयेन आकृष्टं. किं धनुषः दण्डः एव न, अपि तु सीतामनः अपि, सीतायाः हृदयम् अपि तस्मिन्नेव क्षणे तेन आकृष्टं. तत्रापि आकृष्टम् इत्यत्र इत्येतद् उभयत्र अन्वेति. धनुः आकृष्टं, द बो वाज् ड्रान्, तेन सह सीतायाः मनः अपि आकृष्टं, सीतायाः हृदयमपि तेन आकृष्टम्. सो आकृष्टं नितरां तदेव, तदेव न, किन्तु सीतामनः अपि. सीतामनः कथम् आकृष्टं? परं द्रुतम्, अत्यन्तं शीघ्रं. सो क्षणमात्रेणैव सीतायाः मनः अपि तेन आकृष्टम्. भङ्गस्तस्य न केवलं, पुनः तृतीये अपि वदति केवलं तस्य भङ्गः न. सो ओके, तृतीय आकृष्टं नितरां तदेव न, परं सीतामनोपि द्रुतम्. सो यदा रामः बलेन धनुः कृष्टवान् तदैव अतिवेगेन सीतायाः मनः अपि आकृष्टवान् इत्यर्थः. सो अन्ते पुनः केवलं न. किं केवलं न? भङ्गः, भेदः. सो ब्रेकिङ्ग्. सो केवलं कस्य भङ्गः? तस्य धनुषः भङ्गः एव न. इट् वाज़् नाट् जस्ट् द बो विच् वाज् ब्रोकन्, किन्तु दोस्तम्भदम्भस्य च. दोस्तम्भदम्भः, दोः नाम भुजः, द आर्म् इत्यर्थः. दोस्तम्भः, स्तम्भः पिल्लर् इत्यर्थः. दोस्तम्भः इत्युक्ते भुजदण्डः. एक्स्क्यूस् मी जस्ट् वन् मोमेण्ट्. क्षम्यताम्. दोस्तम्भदम्भस्य, दोस्तम्भः नाम तस्य भुजदण्डः. तस्य विषये दम्भः, दम्भः नाम वृथा अभिमानम्, फाल्स् प्रैड्, अरोगेन्स् रिगार्डिङ्ग् देर् आर्म्स्, द पवर् आफ् देर् आर्म्स्. सो केषां दोस्तम्भदम्भस्य? क्षितिभुजां, क्षत्रियाणाम् अथवा राज्ञाम्. अन्ये सर्वेपि राजानः तस्मिन् समये ये आसन् तेषां भुजबलपराक्रमविषये तेषां यः दर्पः आसीत् तस्यापि भङ्गः अभूत्. यतोहि रामं विहाय अन्ये केऽपि तत् शिवधनुः उन्नेतुमपि न शक्तवन्तः. तथा सति यदा रामः लीलया तत् स्वीकृत्य ज्यां बद्ध्वा धनुः भञ्जितवान् तदा धनुषा सह राज्ञाम्, अन्येषां राज्ञाम् दर्पस्य भुजबल विषये तेषां दर्पस्य अपि भंगः अभूत्। सो यदा रामस्य बलं सोढुम् अशक्तं शिवधनुः भग्नं तदैव तच्चापम् उन्नेतुमपि अशक्तानां क्षत्रियाणां निज भुजबलस्य विषये अहंकारः अपि भग्नः। तत्र त्रयं वदति किं किं कृतं धनुर्वंशे गुणारोपणं कृतं तत् नितराम् आकृष्टं तस्य भङ्गः अभूत्। एतत्त्रयं वस्तुतः तत्र सम्पन्नं। सो धनुषः वंशे दण्डे सः मौर्वीम् आरोप्य तत् अतिशयेन कृष्टवान् येन शिवधनुः भग्नम् इति वस्तुस्थितिः। तदा एषः कविः कथयति तेन सह सूर्यवंशे अपि गुणारोपणम् अभूत्। सूर्यवंशस्य गौरवं प्रवृद्धं सीतामनः अपि परं द्रुतम् आकृष्टं। यथा धनुः आकृष्टं तथैव सीतायाः हृदयमपि रामेण आकृष्टं। क्षितिभुजां दोस्तम्भ दम्भस्य च भङ्गः अभूत्। सो अन्येषां क्षत्रियाणां स्वस्य पराक्रमविषये यः दर्पः सोऽपि भग्नः इति कथयति। श्लोकार्थः अवगतः इति चिन्तयामि। रामे बाहुबलं विवृण्वति धनुर्वंशे गुणारोपणं नाभूत् केवलमात्मना तिलकिते वंशेऽपि वैकर्तने आकृष्टं नितरां तदेव न परं सीतामनोऽपि द्रुतं भङ्गस्तस्य न केवलं क्षितिभुजान् दोस्तम्भदम्भस्य च। तन्वयः रामे बाहुबलं विवृण्वति केवलं धनुर्वंशे गुणारोपणं न अभूत् अपि तु आत्मना तिलकिते वैकर्तने वंशे अपि गुणारोपणम् अभूत् इति अन्वयः। तदेव तदेव नाम धनुषः वंशः एव नितरां न आकृष्टम् अपि तु सीतामनः अपि परं द्रुतम् आकृष्टम्। सीतायाः हृदयमपि अतिवेगेन कृष्टं न केवलं तस्य भङ्गः तस्य धनुषः भङ्गः एव न अपि तु क्षितिभुजां दोस्तम्भदम्भस्य च भङ्गः अभूत्। तेषां दर्पस्यापि भङ्गः जातः। रामः यदा शिवधनुषः भङ्गेन स्वस्य बलं प्रकटितवान् तदा अन्यान्यपि कार्याणि युगपत् साधितानि इति कवेः वर्णनम्। तेन यदा धनुषि गुणः आरोपितः तदैव तस्य शौर्येण तद्वंशस्य महिमा अपि महतीं प्रतिष्ठां प्राप। सो एज ही टाइड द स्ट्रिंग हिज फैमिली हिज डिनास्टी गॉट ग्रेट फेम। यदा सः बलेन धनुः कृष्टवान् तदैव अतिवेगेन सीतायाः मनः अपि आकृष्टवान्। सो एज ही ड्रू द बो वित् हिज स्पार ही आल्सो अट्रैक्टेड सीताज हार्ट इमीडिएटली। यदा रामस्य बलं सोढुम् अशक्तं शिवधनुः भग्नं तदैव तच्चापम् उन्नेतुमप्यशक्तानां क्षत्रियाणां निज भुजबलस्य विषये अहंकारः अपि भग्नः। So as the bow broke, so did the arrogance of other kings of the region. Jatha. So Vyakaranamshan Pashyamaha, Bahu Balam, Bahvoho Balam, Bahu Balam, Shashthita Purushaha, Vivrinvati, Vi Upasargaha, Vrinya Varane Dhatuhu, Shatra Pratyayaha, Vivrinvati, इति तकारान्तः पुल्लिङ्गः तस्य सप्तमी एकवचनं विवृण्वति। नाभूत् केवलम् आत्मना तिलकिते वंशेऽपि वैकर्तने विकर्तनस्य इदं वैकर्तनम्। सो विकर्तनसूर्यः तस्य इदं विकर्तनशब्दात् अण् तद्धितप्रत्ययः वैकर्तने वंशे आकृष्टन् नितरां तदेव न परं सीतामनः सीतायाः मनः सकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ एकवचनम्। द्रुतं द्रुतं शीघ्रम् इत्यर्थः जवोथ शीघ्रं त्वरितं लघु क्षिप्रम् अरन्द्रुतम् इति अमरकोशे अस्ति शीघ्रं त्वरितम् इत्यर्थः भङ्गस्तस्य न केवलं क्षितिभुजां क्षितिं भुङ्क्ते इति क्षितिभुक् राजा इत्यर्थः जकारान्तः पुल्लिङ्गः षष्ठीविभक्तौ बहुवचनं दोस्तम्भदम्भस्य च दोः एव स्तम्भः दोस् इति सकारान्तं प्रातिपदिकं दोः दोषौ दोषः इति दोस्तम्भस्य दम्भः दोस्तम्भदम्भः तस्य इदं शार्दूलविक्रीडितं वृत्तं बहुवारं दृष्टं पूर्वमपि सूर्याश्वैर्मसजास्तथा स्वगुरवश्शार्दूलविक्रीडितम् इति वृत्तस्य लक्षणम् दोस्तम्भ इत्यत्र विसर्गसन्धिः दोः स्तम्भ तत्र वाशरी इति सूत्रेण विकल्पेन विसर्गस्य विसर्ग एव भवति यु केन् आल्सो रैट् इट् एस् वित् डबल् सकार सो दो स्तम्भ इत्यपि लेखितुं शक्यते विसर्गः अपि भवति तत्र द विसर्ग सकार देर् इस् आप्शनल् सो वाशरी इति सूत्रेण वैकल्पिकः आदेशः सो दोस्तम्भदम्भस्य च रामे बाहुबलं विवृण्वति धनुर्वंशे गुणारोपणं नाभूत् केवलमात्मना तिलकिते वंशेऽपि वैकर्तने आकृष्टन्नितरान् तदेव न परं सीतामनोऽपि द्रुतं भङ्गस्तस्य न केवलं क्षितिभुजान् दोस्तम्भदम्भस्य च दोष शब्दः पुल्लिङ्गः वा इति हा दोः दोषौ दोषः पुल्लिङ्गे नपुंसके उभयथापि स्यात् यतोहि दोषाणि इत्यपि अस्ति दोः दोष्णी दोषणी दोषाणि इत्यपि अस्ति प्रायः पुल्लिङ्गे नपुंसकलिङ्गे उभयत्र नितराम् आकृष्टम् इत्यत्र तत् शब्देन किमुच्यते धनुः तद्धनुः नितराम् आकृष्टम् सो धनुः एव न आकृष्टम् अपि तु सीतामनः क्षिति शब्दस्य कः अर्थः क्षितिः भूमिः इत्यर्थः भूमिः भूमिपालः क्षितिपालः अन्ये केऽपि प्रश्नाः अग्रे गच्छामः पुनः तदा यदा शिवधनुषः भङ्गः अभूत् तदा तस्मादुत्पन्नः शब्दः कीदृशः इति वर्णयति अनुवक्तुमिच्छन्ति जानकी रामाकर्षणभग्नकार्मुकभुवा
रामाकर्षणभग्नकार्मुकभुवा रामाकर्षणभग्नकार्मुकभुवा
ध्वानेन रोदोरुधा
ध्वानेन रोदोरुधा ध्वानेन रोदोरुधा
दृप्तक्षत्रयशस्ति तच्छदकुले
दृप्तक्षत्रयशस्सितच्छदकुले दृप्तक्षत्रयशस्सितच्छदकु कथं దృప్త దృప్త క్షత్ర యశస్వి తచ్చదకులే దృప్త క్షత్ర యశస్వి తచ్చదకులే
జీమూతనాదాయితం
జీమూతనాదాయితం జీమూతనాదాయితం
వీరశ్రీ ప్రథమ ప్రవేశ సమయే
వీరశ్రీ ప్రథమ ప్రవేశ సమయే వీరశ్రీ ప్రథమ ప్రవేశ సమయే
పుణ్యాః ఘోషాయితం
పుణ్యాః ఘోషాయితం పుణ్యాః ఘోషాయితం
సీతాయాః కిల మానసే పరిణయే
సీతాయాః కిల మానసే పరిణయే సీతాయాః కిల మానసే పరిణయే
మాంగల్యతూర్యాయితం
మాంగల్యతూర్యాయితం మాంగల్యతూర్యాయితం రామ ఆకర్షణ భగ్న కార్ముక భువ రామాకర్షణ భగ్న కార్ముక భువ ధ్వానేన రోధోరుధా దృప్త క్షత్ర యశస్సిత చదకులే యశస్సిత చదకులే
చదకులే
చదకులే చదకులే ఓకే జీమూత నాదాయితం జీమూత నాదాయితం వీర శ్రీ ప్రథమ ప్రవేశ సమయే వీరశ్రీ ప్రథమ ప్రవేశ సమయే పుణ్య అహ ఘోషాయితం పుణ్యాహ ఘోషాయితం సీతాయాహ కిల మానసే పరిణయే మాంగల్య తూర్యాయితం మాంగల్య తూర్యాయితం సీత నమస్తే
రామ ఆకర్షణ భగ్న కార్ముక భువా ధ్వనేన రోదోరుధ రోదస్ శబ్ద రోధ రుధ రోదోరుధ దృప్త క్షత్ర యశస్విత ఛద కులే జీమూత నాదాయితం వీర శ్రీ ప్రథమ ప్రవేశ సమయే పుణ్య అహ పుణ్యాః ఘోషాయితం సీతాయాః కిల మానసే పరిణయే మాంగల్య తూర్యాయితం సో తస్య తత్ర ధ్వానేన ధ్వానః నామ శబ్దః సో రామాకర్షణ భగ్న కార్ముక భువా ధ్వానేన శివధనుషః భంగేన ఉత్పన్నః యః ధ్వనిః సః కీదృశః ఆసీత్ తేన ధ్వనినా కిం కిం కృతం ఇతి వర్ణయతి జీమూత నాదాయితం సో జీమూతః మేఘః క్లౌడ్ జీమూతస్య నాదః మేఘ నిర్ఘోషః ద సౌండ్ ఆఫ్ థండర్ సో జీమూత నాదాయితం సో వ్యాకరణాంశే పశ్యామః ఏషః విశిష్టః ప్రయోగః స ఇవ ఆచరతి సో యాక్టింగ్ లైక్ సంథింగ్ తస్మిన్ అర్థే అయం నామధాతుః జీమూత నాదః ఇవ ఆచరతి సో యథా మేఘ నిర్ఘోషః తథా మేఘ నిర్ఘోషేణ యాదృశం కార్యం క్రియతే తాదృశం అనేన ధ్వనినా అపి కృతం జీమూత నాదాయితం సో కస్మిన్ జీమూత నాదాయితం దృప్త క్షత్ర యశస్సిత ఛదకులే సితఛదకులే సితఛదాః ఛదః నామ పక్షః ద వింగ్స్ సితఛద సితః శ్వేతః సో శ్వేతపక్షః ఇతి హంసస్య నామ సో స్వాన్స్ ద ప్యూర్ వైట్ స్వాన్స్ దే ఆర్ కాల్డ్ సితఛద సో సితఛదానాం కులే శ్వేతహంసానాం సమూహే జీమూత నాదాయితం యది మేఘ నిర్ఘోషః భవతి సితఛదాః భయేన పలాయంతే సో అయం ధ్వనిః అపి సితఛదకులే జీమూత నాదః ఇవ ఆసీత్ సో అత్ర సితఛదకులం కిం ఇతి చేత దృప్త క్షత్ర యశః దృప్తానాం క్షత్రియాణాం కీర్తిః కీర్తిః ఏవ సితఛదకులం సో అన్యేషాం సర్వేషామపి క్షత్రియాణాం యః అహంకారః ఆసీత్ సో తేషాం కీర్తిః सो नार्मलि संस्कृतकाव्येषु यशसः श्वेतवर्णत्वं कल्प्यते. सो फेम् इस् आल्वेस् दट् इस् गुड् फेम् फेम् ड्यू टु सत्कार्य सो इस् आल्वेस् पिक्चरैज् एस् वैट् हंसीव कृष्णते कीर्तिः वर्दङ्गाम् अवगाहते इति उपमालङ्कारस्य प्रसिद्धम् उदाहरणं. द स्टाण्डर्ड् एक्साम्पल् फार् उपमालङ्कार इस् दट् हे कृष्ण ते कीर्तिः हंसी इव. सो लैक् अ वैट् स्वान् विच् इस् यु नो प्योर्लि वैट् विथौट् एनी ब्लेमिश् तथा तादृशी कीर्तिः. सो ते कीर्तिः स्वर्गङ्गाम् अवगाहते. सो तव कीर्तिः स्वर्गमपि व्याप्नोति इति वर्णयितुं हंसी इव स्वर्गङ्गां स्वर्गलोकस्य गङ्गा नद्यां हंसः इव तव कीर्तिः विलसति इति उदाहरणं. सो हंसस्य श्वेतवर्णत्वस्य यशसः परस्परं सम्बन्धः बहुधा दृश्यते. सो अत्रापि सितच्छदकुलं सितच्छदकुलं किं हंसानां समूहः कः इति चेत् यशः कीर्तिः केषां कीर्तिः दृप्ताणां क्षत्राणां कीर्तिः. सो सा कीर्तिः एव सितच्छदं सितच्छदकुलं. तत्र धीमूतनादः इव अर्थात् यथा धीमूतनादं श्रुत्वा सर्वे हंसाः पलायनं कुर्वन्ति एवं शिवधनुषः भङ्गं श्रुत्वा क्षत्रियाणां कीर्तिः पलायिता. सो आल् देर् फेम् वास् रेड्यूस् टु नथिङ्ग्. सो इट् फ्लेड् अवे बिकास् आफ् सच् अ डीड् दट् राम पर्फार्म्. सो रामस्य बलेन तेन ध्वनिना किं घोष्यते रामस्य बलं कीदृशम् इति तत् श्रुत्वा अन्ये सर्वेपि क्षत्रियाः भीताः इत्यर्थः. सो धीमूतनादायितं कस्मिन् दृप्तक्षत्रयशस्थितच्छदकुले. सो केन धीमूतनादायितं ध्वानेन शब्देन. सो कीदृशेन ध्वानेन रामाकर्षणभग्नकार्मुकभुवा श्रीरामस्य कर्षणेन भग्नं नाम विदलितः यत् कार्मुकं चापः तस्मात् भूः उत्पन्नेन. सो श्रीरामस्य आकर्षणेन शिवधनुः भग्नं भञ्जनसमये यः शब्दः उत्पन्नः सः शब्दः मेघनिर्घोषः इव आसीत्. केषां कृते मेघनिर्घोषः इव आसीत्? हंसकुलस्य. हंसकुलं किम्? अहङ्कारिणां क्षत्रियाणां कीर्तिः एव हंसः. तत् कुलस्य मेघनिर्घोषः इव सः ध्वनिः आसीत्. As if sending out a warning to all Kshatriyas who were arrogant with their own power. So Ramakarshana Bhagna Karmuka Bhuvan Dhvanena. Punah Kidrishena Dhvanena Rodo Rudha. Rodas Dhyava Prithivi Rodasi. So Rodas iti Shabdaha Bhumim Akasham cha Suchayati. So it is for the earth and the sky together is referred to as rodas. So rodo rudha bhumim antariksham cha vyapnoti. So which covered the entire world. So covered both the earth and the skies immediately. Kim? The sound. So ramakarshana bhagna karmuka bhuva rodo rudha dhvanena दृप्तक्षत्रयशस्थितच्छदकुले जीमूतनादायितम्. सो रामस्य कर्षणेन भग्नं यच्छिवधनुः तस्मादुत्पन्नः शब्दः भूमिम् अन्तरिक्षं च व्याप्य अहङ्कारिणां क्षत्रियाणां कीर्तिरूपे हंससमूहे मेघनिर्घोषः इव आसीत् इति प्रथमार्थः. पुनः उच्यते पुनः तेन ध्वानेन तेन शब्देन किं कृतं? पुण्याः घोषायितं. पुण्याः घोषः पुण्यम् अहः पुण्याः. सो शुभदिनम् इत्यर्थः. शुभदिने यः घोषः स्वस्तिवाचनं अस्माकं सम्प्रदाये पुण्याः इति भवति. कुत्रापि इदानीं शिशुः जायते तस्य दशमे दिने एकादशे दिने वा पुण्याः इति, अथवा गृहप्रवेशः तत्र पुण्याः. सो शुभसन्दर्भेषु स्वस्तिवाचनं क्रियते. सो स्वस्तिवाचनशब्दः इव आचरितं तथा आसीत्. सो अहङ्कारिणां क्षत्रियाणां कीर्तिविषये मेघनिर्घोषः इव आसीत्. इदानीं पुण्याः घोषायितं स्वस्तिवाचनम् इव आसीत्. कदा कस्य स्वस्तिवाचनं? वीरश्रीप्रथमप्रवेशसमये. प्रथमप्रवेशः यदा काचित् वधूः विवाहानन्तरं वधूः गृहं प्रविशति तदा स्वस्तिवाचनं क्रियते. अत्र तु वीरश्रीप्रथमप्रवेशसमये रामस्य वीरलक्ष्मीः, वीर्यम् एव लक्ष्मीः, तस्याः प्रवेशकाले. सो इट् इस् एस् इफ् अनौन्सिङ्ग् द एण्ट्रन्स् आफ् द लक्ष्मी आफ् रामस् वेलर्. सो द वेलर्. सो वीर्यं लक्ष्मीरूपेण, तदपि प्रसिद्धं संस्कृतवाङ्मये. सो द पोर्ट्रेल् आफ् वेलर् एस् वीरलक्ष्मी और् विक्टरि एस् लक्ष्मी, पूर्वमपि दृष्टं किल, अमनुत जयलक्ष्म्या राममाजौ समेतं यजनजनितमूर्त्या योक्तुम् अव्याज लक्ष्म्या. सो वीरश्री प्रथमप्रवेशसमये. सो रामस्य वीरलक्ष्मीः प्रविशति, तदानीमेव प्रपञ्चं जानाति रामस्य वीर्यं कियत् इति. अतः तस्याः वीरलक्ष्म्याः प्रवेशसमये पुण्याः घोषायितं स्वस्तिवाचनं भवेत् किल. किं स्वस्तिवाचनम् इति चेत् धनुषः भङ्गस्य नादः एव तद्विषये पुण्याः घोषः इव आचरति. वीरश्री प्रथमप्रवेशसमये पुण्याः घोषायितम् इति द्वितीयं. स एव नादः जीमूतनादायितः पुण्याः घोषायितः. पुनः किं कृतं तेन नादेन? माङ्गल्यतूर्यायितम्, मङ्गलवाद्यानि भवन्ति. सो मङ्गलवाद्येन इव आचरितम्. सो कस्मिन् समये मङ्गलवाद्यस्य घोषः भवति? परिणये, विवाहे. सो इवन् नौ विवाह इस् हेराल्डेड् बै द सौण्ड् आफ् द ऑस्पिशियस् इन्स्ट्रुमेण्ट्स्, नादस्वरः, डमरुः इत्यादीनां. सो परिणये माङ्गल्यतूर्यायितम्, माङ्गल्यतूर्येण इव. कः परिणयः? विवाहः इतोपि अग्रे किल, इदानीं तु विवाहः न जातः इति चेत् मानसे परिणये. सीता तदैव मनसा रामम् ऊढवती. अतः मानसे परिणये कस्याः? सीतायाः. सो सीतायाः मानसे परिणये माङ्गल्यतूर्यायितं किल. किल इस् जस्ट् एन् एक्स्प्रेशन्, खलु निश्चयेन इति कविः कथयति. सो स एव ध्वनिः. सो भग्नस्य धनुषः उत्पन्नः ध्वनिः रोदोरुधा. सो भूमिम् अन्तरिक्षं च व्याप्य तेन जीमूतनादायितं पुण्याः घोषायितं माङ्गल्यतूर्यायितं. सो कस्य विषये जीमूतनादः? दृप्तक्षत्रयशस्थितच्छदकुले. सो कुत्र पुण्याः घोषः? वीरश्री प्रथमप्रवेशसमये. कुत्र माङ्गल्यतूर्यायितं? सीतायाः मानसे परिणये. सो अन्वयः, रामाकर्षणभग्नकार्मुकभुवा रोदोरुधाध्वानेन दृप्तक्षत्रयशस्थितच्छदकुले जीमूतनादायितं वीरश्री प्रथमप्रवेशसमये पुण्याः घोषायितं सीतायाः मानसे परिणये माङ्गल्यतूर्यायितं किल. सो किं तात्पर्यम्? श्रीरामस्य बलवत्कर्षणेन शिवधनुः भग्नम्, तस्य विदारणेन जनितः नादः नभोमण्डलं भूमण्डलं च व्याप्नोत्. सो इट् स्प्रेड् अक्रास् द अर्थ् एण्ड् अक्रास् द स्कै. सः नादः निजबलेन गर्वितानां क्षत्रियाणां कीर्तिरूपस्य श्वेतहंससमूहस्य मेघनिर्घोषः इव आसीत्. यथा मेघनादेन भीताः हंसाः पलायन्ते तथा अन्येषां क्षत्रियाणां कीर्तिहंसः अपि पलायितः इत्यर्थः. सो वीरलक्ष्म्याः आदिमप्रवेशकाले स्वस्तिवाचनम् इव आसीत्. सो इट् आल्सो आक्टेड् एस् द बेनेडिक्टरी चाण्ट् ड्यूरिङ्ग् द एण्ट्रन्स् आफ् द वीरलक्ष्मी आफ् राम. सो सीतायाः मनसि विवाहस्य मङ्गलनादः इव अपि सः नादः बभूव. And that sound was also like the auspicious sound of instruments in the mental wedding of Sita. Rama karshana bhagna kar mukabhuva dhvane narodo rudha dripta kshatraya shasita charakule jimuta nadayitam virashri prathama pravesha samaye पुण्याः घोषायितम् सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम्. वेङ्कटेश्वर
महोदय, to look at our Puranas, the deeds which are described are Amanusha. That is, Rama got back at the age of 12, Sita at the age of 6. Sort of bending that.
Cannot hear the last. It broke. Sorry.
Hello? So what I want to say is, look at all our Puranas, the Itihasas, the deeds which are described are Amanusha deeds. That is, you cannot, our standards, we cannot imagine. Other Rajas are not able to win that. Rama at the age of 12, do it, and like that, we have to remember that God is the Krishna looked at over the little finger. This is not very possible to imagine. What I want to say is, you have to look at that point of
it. The last bit, we have to
look at these feats, from that point of view. These are all from the human or from the our standards, it look impossible, but because they are all Vishnu avatar, Krishna or Rama, they could do this. This is described in Satcharita. That is the Sai, Shiradi Sai also. He leaves the body and comes back. And these things, all the activities, we have to look at that from that point of view. It's not possible to imagine from our standards. That's what I want to say.
Okay. So, Ramakarshana Bhagna Karmukha Bhuva Bhuhu Iti Ukaranta Pullinga Shabdaha Ramasya Akarshanam Ramakarshanam Ramakarshanena Bhagnam. So, Ramakarshana Bhagnam Karmukam. So, Ramakarshana Bhagna Karmukat Bhavati Iti Ramakarshana Bhagna Karmukha Bhuhu Ukarantaha Pullingaha तृतीया विभक्तौ एकवचने भुवा भूः भुवौ भुवः तत्र भुवा इति तृतीया विभक्तौ भवति ध्वानेन इत्यस्य विशेषणम्. सो ध्वानेन शब्दे निनाद ध्वनि ध्वान रवस्वनाः इत्यमरः शब्दः इत्यर्थः. निनादः निनदः ध्वनिः ध्वानः रवः स्वनः सर्वाणि पर्यायपदानि. रोदो रुधा रोदसी रुणद्धि इति रोदोरुत् धकारान्तः पुल्लिङ्गः तृतीया विभक्तौ एकवचनम्. सो एतदपि किं तृतीया विभक्तिः ध्वानेन इत्यस्य विशेषणम्. सो तत्र द्यावा पृथिव्यौ रोदस्यौ द्यावा भूमी च रोदसी इति अमरकोशः. सो द्यावा पृथिव्यौ रोदस्यौ द्यावा भूमी, इट् इस् आल् आफ् देम् आर् द्विवचन नित्य द्विवचनान्तः शब्दः रोदसी. ऐ मीन् बिकास् इट् इस् टु थिङ्ग्स्, इट् इस् नाट् वन्. सो रोदसी इति तु द्यावा पृथिव्योः उभयोः पदम्. अतः रोदस् इति सकारान्तशब्दः, किन्तु रोदसी इति द्विवचने एव प्रयोगः. रोदस्य इति अकारान्तशब्दोऽपि अस्ति, तस्य रोदस्यौ इति प्रयोगः. सो द्यावा पृथिव्यौ रोदस्यौ द्यावा भूमी च रोदसी. सो रोदः रोदसी, रोदसी रुणद्धि, रोदस् रुध् रोदोरुद् इत्यर्थः. दृप्तक्षत्रयशस्सितच्छदकुले, दृप्ताः क्षत्राः, दृप्तक्षत्राः, दृप्तक्षत्राणां यशः. सो दृप्तक्षत्रयशः, दृप्तक्षत्रयशः किम्? सितच्छदकुलं, सितच्छदानां कुलं, सितच्छदकुलं. सो दृप्तक्षत्रयशः एव सितच्छदकुलं तस्मिन्. जीमूतनादायितं, जीमूतस्य नादः, जीमूतनादः, जीमूतनादः इव आचरितम्. सो क्यङ् प्रत्ययः नामधातुः इति कथ्यते. सो जीमूतनादः इति शब्दात् क्यङ् प्रत्ययः भवति. सो जीमूतनादायते इति तिङन्तप्रयोगः, तस्य क्तप्रत्ययान्तः जीमूतनादायितः. वीरश्री प्रथमप्रवेशसमये, सो वीराणां श्रीः वीरश्रीः प्रथमः प्रवेशः, प्रथमप्रवेशः, वीरश्रियाः प्रथमप्रवेशः. सो वीरश्री प्रथमप्रवेशस्य समयः तस्मिन्, वीरश्री प्रथमप्रवेशसमये. पुण्याः घोषायितं, पुण्यम् अहः पुण्याः, पुण्याहस्य घोषः, पुण्याः घोषः इव आचरितम्. सो अत्रापि स एव प्रत्ययः, अयमपि नामधातुः. परिणयः विवाहोपयमौ समौ तथा परिणयोद्वाः उपयामाः पाणिपीडनम्. सो विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्. सो सर्वमपि विवाहस्य पर्यायः. सुमानसे परिणये माङ्गल्यतूर्यायितं, माङ्गल्यस्य तूर्यं, माङ्गल्यतूर्यं, माङ्गल्यतूर्यम् इव आचरितम्. सो इदमपि शार्दूलविक्रीडितं वृत्तं. लुप्तोपमालङ्कारः, उपमालङ्कारः द्विविधः, पूर्णोपमा लुप्तोपमा इति. उपमायां चत्वारि अङ्गानि भवन्ति, उपमानम्, उपमेयः, सामान्यधर्मः, उपमावाचकशब्दः इति. यथा तव मुखं चन्द्रः इव शोभते इति यदि वाक्यं, तत्र मुखम् उपमेयः, चन्द्रः उपमानं, शोभा साधारणधर्मः, इव इति उपमावाचकशब्दः. एतानि चत्वारि अपि अवयवानि यत्र भवन्ति सा उपमा पूर्णोपमा इति कथ्यते. यत्र तु कस्यचित् अवयवस्य लोपः न श्रूयते, अस्ति किन्तु साक्षात् प्रत्यक्षरूपेण न कथ्यते, सा लुप्तोपमा इति कथ्यते. अत्र सर्वत्रापि इव इति उपमावाचकशब्दः. माङ्गल्यतूर्यम् इव आचरति इति तत्सादृश्यवाचकत्वं प्रत्यये अस्ति, अतः उपमावाचकशब्दः नास्ति लुप्तोपमा अलङ्कारः. वृत्तं समानं पूर्वश्लोके, अस्मिन् च शार्दूलविक्रीडितम्. रामाकर्षण भग्नकात् मुखभुवाध्वानेन रोजोरुधा वृत्तक्षत्रयशक्ति तच्छरकुले जीमूतनादायितम् वीरश्री प्रथमप्रवेश समये पुण्याः घोषायितम् सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम् अग्रिमः श्लोकः समयः अस्ति वा दशनिमेषाः सन्ति अतः एतं श्लोकमपि पठामः समानविषये तारध्वनिः तस्य शब्दस्य विषये एव उच्यते कथञ्चित् दीपावलिसमयः इत्यतः शब्दस्य विषये पठामः अत्र एकः प्रश्नः नामधातुषु केषां नामपदानां भवति इति नियमः अस्ति वा इति क्वचित् भवति क्वचिन्न भवति यथा आत्मनः इच्छति इत्यर्थे प्रत्ययः भवति क्ष्यच् प्रत्ययः तत्र कस्मादपि सुबन्तात् भवितुम् अर्हति तत्र नियमः नास्ति केचित् प्रत्ययाः नामधातुः इत्यत्र बहवः प्रत्ययाः सन्ति क्ष्यच् काम्यच् क्यङ् इत्यादि तत्र क्वचित् नियमः अस्ति यथा नमो वरिवश्चित्रङः क्यङ् इत्यस्ति तत्र नमस्यते नमस्यति वरिवस्यति चित्रीयति इति तेषामेव धातूनां भवति ऐ मीन् तेषामेव नामपदानां भवति अन्येषां न भवति क्वचित् सामान्यतया भवति अत्र नास्ति इत्युक्ते सैव आचरति इति तु सर्वेषामपि नामपदानाम् अर्थमाश्रित्य कर्तुं शक्यते अत्र केपि अनुवक्तुमिच्छन्ति महादेवन्
नमस्ते
नवः कठिनकर्षण
नवः कठिनकर्षण नवः कठिनकर्षण
त्रुटितचापजन्माक्षणात्
त्रुटितचापजन्माक्षणात् त्रुटितचापजन्माक्षणात्
दिशां द्विरदघीङ्कृतैः
दिशां द्विरदघीङ्कृतैः दिशां द्विरदघीङ्कृतैः
कृतहरित्पतिस्वागतः
कृतहरित्पतिस्वागतः कृतहरित्पतिस्वागतः
जगद्भ्रमणकौतुकोच्छलित रामकीर्त्यङ्गना
जगद्भ्रमणकौतुकोच्छलित रामकीर्त्यङ्गना जगद्भ्रमणकौतुकोच्छलित रामकीर्त्यङ्गना
प्रयाणपटहध्वनिम्
प्रयाणपटहध्वनिम् प्रयाणपटहध्वनिम्
प्रथयति स्म तारध्वनिः
प्रथयति स्म तारध्वनिः प्रथयति स्म तारध्वनिः नवः कठिन कर्षण त्रुटित चापजन्मा क्षणात् दिशां विरदघीङ्कृतैः कृतहरितपतिस्वागतः जगद्भ्रमणकौतुकोच्चलित कौतुक उच्चलित रामकीर्ति अङ्गना प्रयाणपटहध्वनिम् प्रथयति स्म तारध्वनिः
सम्यक् सो नवः कठिनकर्षणत्रुटितचापजन्मा क्षणात् दिशां द्विरदझीङ्कृतैः कृतहरित्पतिस्वागतः जगद्भ्रमणकौतुक उच्चलित रामकीर्ति अङ्गना प्रयाणपटः ध्वनिम् एकमेव पदं जगद्भ्रमणकौतुकोच्चलित रामकीर्त्यङ्गना प्रयाणपटः ध्वनिम् प्रथयति स्म तारध्वनिः. प्रथयति स्म, प्रकटयति स्म इत्यर्थः. कः प्रथयति स्म? तारध्वनिः, तारः उच्चः. सो अत्यन्तम् उच्चैः कृतः सः शब्दः. सो लौड् नाय्स्, तारध्वनिः. कीदृशः सः तारध्वनिः? नवः. नवः अभूतपूर्वः, अत्यन्तं नूतनः. पूर्वं कदापि अश्रुतः सः तादृशशब्दः. पुनः कीदृशः? कठिनकर्षणत्रुटितचापजन्मा. कठिनं कर्षणं नाम दृढतया यदा सः आकृष्टवान् तेन हेतुना त्रुटितं नाम भग्नं. किं? चापः, धनुः. तस्मात् जन्म. सो दृढाकर्षणहेतुना भग्नात् धनुषः उत्पन्नः. शिवधनुषः भङ्गात् उत्पन्नः. अभूतपूर्वः सः उच्चशब्दः. प्रथयति स्म, प्रकटयति स्म. किं प्रकटयति स्म इति अग्रे आगच्छति. पुनः कीदृशः सः तारध्वनिः? कृतहरित्पतिस्वागतः. हरित्पतयः, हरित् इत्युक्ते दिक् इत्यर्थः. दिशस्तु ककुभः काष्ठा, आशाश्च हरितश्च ताः. सो हरित्पतिः इत्युक्ते दिक्पालकाः. सो दिक्पालकविहितं स्वागतं सूचयन्. सो दिक्पालकैः कृतं स्वागतं सूचयति इव आसीत्. सो कैः कृतहरित्पतिस्वागतः? कथं स्वागतं सूचयन्ति दिक्पालकाः? दिशां द्विरदघीङ्कृतैः. दिशां द्विरदः, द्विरदः इत्युक्ते गजः. दिशां गजाः, दिग्गजाः. दिग्गजानां घीङ्कृतिः. द ट्रम्पेटिङ्ग् आफ् द एलिफेण्ट् इस् काल्ड् घीङ्कार आर् घीङ्कृति. सो दिग्गजानां क्रन्दनेन दिक्पालकानां स्वागतं सूचयति इव आसीत्. थिङ्ग् इस् यदा एषः शिवधनुषः शब्दः उत्पन्नः क्षणादेव दिग्गजानां शब्दः अपि श्रुतः आकाशे. किमर्थम्? अतिशीघ्रं यदा अयं शब्दः रोदसी व्याप्नोत् तदा भीताः दिग्गजाः घीङ्कारं कृतवन्तः. सः घीङ्कारः दिक्पालकानां स्वागतं सूचयति इव आसीत्. वाट् एक्चुलि हेपन्ड् वास् दट् द एलिफेण्ट्स् गाट् स्केर्ड् हियरिङ्ग् दिस् सौण्ड् आफ् द ब्रेकिङ्ग् आफ् द बो एण्ड् दे ट्रम्पेटेड् लौड्ली. सो दट् ट्रम्पेटिङ्ग् आफ् द एलिफेण्ट् इस् इमेजिन्ड् बै द पोयट् टु बी द वेल्कम्, वेल्कम् आफर्ड् बै द दिक्पालकास्. कस्य स्वागतं कुर्वन्ति दिक्पालकाः इति चेत् जगद्भ्रमणकौतुकोच्चलित रामकीर्त्यङ्गना प्रयाणपटः ध्वनिम्. सो रामकीर्त्यङ्गन, श्रीरामस्य कीर्तिरूपा नारी. सो तस्याः प्रयाणं, सा प्रयाणं कर्तुं प्रस्थिता, उच्चलिता नाम प्रस्थिता. किमर्थं? कौतुकेन, कौतूहलेन, वित् क्यूरियोसिटि. कस्मिन् विषये? जगद्भ्रमण, विश्वं सञ्चरितुं कौतूहलात् प्रस्थिता का? श्रीरामस्य यशोरूपा नारी लक्ष्मीः. तस्याः प्रयाणपटः ध्वनिं, तस्याः प्रयाणकाले पटः ध्वनिः भेरीनिनादः भवति. You should use some imagination to understand what the poet is saying. Yada kopi, kopi vishishya raja athava ragi prayanartham pratishthate, tada bheri nadaha bhavati. So there is sounds of drums and trumpets which are sounded at the beginning of a journey. So atra Shri Ramasya kirti roopa nari vishvam, विश्वे भ्रमणं कर्तुं कौतूहलेन प्रस्थिता. सिम्प्ली मीन्स् दट् दिस् इस् द बिगिनिङ्ग् आफ् द स्प्रेड् आफ् रामास् फेम् थ्रू औट् द वर्ल्ड्. सो दट् इस् बीङ्ग् इमेजिन्ड् बै द पोयट् आस् रामस्य कीर्त्यङ्गना प्रयाणं कर्तुं प्रस्थिता जगद्भ्रमणस्य कौतुकेन. तदा भेरीनिनादः इव अयं ध्वनिः आसीत्. द सौण्ड् आफ् द बो ब्रेकिङ्ग् ईस् लैक् द भेरीनाद, लैक् द सौण्ड् आफ् इन्स्ट्रुमेण्ट्स् इण्डिकेटिङ्ग् द बिगिनिङ्ग् आफ् हर् जर्नि, द जर्नी आफ् रामस् फेम् थ्रू औट् द वर्ल्ड्. सो यदा एषा रामस्य कीर्त्यङ्गना प्रतिष्ठते तदा सर्वे दिक्पालकाः स्वागतं कुर्वन्ति, यतोहि तेषां कार्यार्थमेव किल रामः अवतीर्णः. सो तेषां स्वागतं कथं ज्ञायते? दिग्गजानां नादेन ज्ञायते. सो शिवधनुषः भङ्गस्य शब्दं कृत्वा दिग्गजाः झिङ्कारं कृतवन्तः. सो चापभङ्गस्य शब्दः प्रयाणपटः ध्वनिः, दिग्गजानां शब्दः तु हरित्पतिस्वागतः. सो देर् आर् टू उपमास् दट् द पोयेट् इस् यूसिङ्ग् हियर्. सो द सौण्ड् आफ् द बो ब्रेकिङ्ग् ईस् लैक् द इन्स्ट्रुमेण्ट् इण्डिकेटिङ्ग् द स्टार्ट् आफ् द जर्नि. सो इन् रेस्पान्स् टु दट् द स्वागत वेल्कम् बै द दिक्पालकस् ईस् हर्ड् इन् द फार्म् आफ् द ट्रम्पेटिङ्ग् आफ् देर् एलिफेण्ट्. अन्वयः कठिनकर्षणत्रुटितचापजन्मा नवः तारध्वनिः क्षणात् दिशां द्विरदघीङ्कृतैः कृतहरित्पतिस्वागतः जगद्भ्रमणकौतुकोच्चलित रामकीर्त्यङ्गना प्रयाणपटः ध्वनिं प्रथयति स्म. रामस्य दृढाकर्षणेन भग्नात् शिवधनुषः अभूतपूर्वः उच्चशब्दः उत्पन्नः. तच्छ्रुत्वा झटिति भयेन दिग्गजाः झीङ्कारं कृतवन्तः. सः नादः विश्वे सर्वत्र सञ्चरितुं कौतूहलात् प्रस्थितायाः श्रीरामस्य यशोलक्ष्म्याः यात्रारम्भे भेरीनिनादः इव आसीत्. नमः कठिनकर्षणत्रुटितचापजन्मा क्षणात् दिशां विरदघीङ्कृतैः कृतहरित्पतिस्वागतः जगद्भ्रमणकौतुकोच्चलित रामकीर्त्यङ्गना प्रयाणपटः ध्वनिं प्रथयति स्म तारध्वनिः. कठिनकर्षणत्रुटितचापजन्मा, कठिनं कर्षणं, कठिनकर्षणं, कठिनकर्षणेन त्रुटितः, त्रुटितः भग्नः इत्यर्थः. कठिनकर्षणत्रुटितः चापः. सो कठिनकर्षणत्रुटितचापात् जन्म यस्य सः. सो कठिनकर्षणत्रुटितचापजन्मा, जन्मन् इति नकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनं, तारध्वनिः इत्यस्य विशेषणम्. सो दिशां, दिश् शकारान्तस्त्रीलिङ्गः षष्ठीविभक्तौ बहुवचनं. द्विरदघीङ्कृतैः, द्विरदानां घीङ्कृतानि तैः. दन्ती दन्तावलोहस्ति द्विरदो नेकपो द्विपः इति अमरः. द्विरदः, द्वौ रदौ, रदौ नाम दन्तौ. सो द्वौ दन्तौ यस्य सः द्विरदः, गजः इत्यर्थः. सो द्विरदघीङ्कृतैः कृतहरित्पतिस्वागतः. हरितां पतयः हरित्पतयः, हरित्पतीनां स्वागतं, कृतं हरित्पतिस्वागतं येन सह. दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः इति हरित्शब्दः दिक्पर्यायः. सो हरित्पतयः इत्युक्ते दिक्पालकाः. जगद्भ्रमणकौतुकोच्चलित रामकीर्त्यङ्गना प्रयाणपटः ध्वनिः. सो उत्तमः अभ्यासः अयं श्लोकः दीर्घसमासानां विग्रहे. सो जगतः भ्रमणं जगद्भ्रमणं, जगद्भ्रमणस्य कौतुकं, जगद्भ्रमणकौतुकेन उच्चलिता, का उच्चलिता? रामकीर्त्यङ्गना. सो रामस्य कीर्तिः रामकीर्तिः, रामकीर्तिः एव अङ्गना, अङ्गना नारी. ஜகத்பிரமண கௌதுகோச்சலிதா ராம கீர்த்தியங்கனா தஸ்யாஹ பிரயாணம் பட்டஹஸ்ய த்வனிஹி பட்டஹத்வனிஹி. ஸோ ஜகத்பிரமண கௌதுகோச்சலித ராம கீர்த்தியங்கனா பிரயாணஸ்ய பட்டஹத்வனிஹி தம் பிரதயதி ஸ்ம. பிரத பிரக்யானே தாதோ நிஜந்தாத் லட்லகாரே பிரதம புருஷே ஏகவசனம். ஸோ பிரததே இஸ் டு ஸ்ப்ரெட், பிரதயதி டு மேக் இட் ஸ்ப்ரெட். தாரத்வனிஹி தாரஹா த்வனிஹி தாரத்வனிஹி. காகலீது கலே சூக்ஷ்மே த்வனௌது மதுரா ஸ்புடே கலோ மந்திரஸ்து கம்பீரே தாரோத்யுச்சை த்ரயஸ்த்ரிஷு. ஸோ தெர் ஆர் த்ரீ கைண்ட்ஸ் ஆஃப் சவுண்ட்ஸ், காகலி மந்திரஹ தாரஹ. ஸோ காகலி இத்தியஸ்ய கஹ அர்த்தஹ சூக்ஷ்மே த்வனௌ மதுர அஸ்புட. ஸோ அ வெரி லோ மெலோடியஸ் sound is called kakali. It is like humming. The sound for humming is called kakali. Mandrastu gambhire, a very deep sound. So at the lower, a bass sound is called mandra. Taraha atyuchaihi, so very high pitched sound is called tara. Trayas trishu, so all these are trilingas. Okay. தாரத்வனி ரூபகாலங்கார. ஸோ இட் இஸ் ரூபக, ஹி டசன்ட் சே இட் வாஸ் லைக். ஸோ இட் வாஸ் த பட்டஹத்வனி ஃபார் த பிரயாண ஆஃப் த ராமகீர்த்தியங்கன. ஸோ ராமகீர்த்தியங்கனா இத்தியத்ராபி ரூபகம். ஸோ பிரயாண பட்டஹத்வனி இத்தியத்ராபி ரூபகம். த விருத்த இஸ் கால்ட் பிருத்வி. ஓகே, ஸோ இட்ஸ் எ ரேர், ஒன் ஆஃப் த ரேர் மீட்டர்ஸ். ஜசௌ ஜசலயா வசுக்கிரஹ யதிஷ்ட பிருத்வி குரு. ஸோ ஜச ஜசலய இதி கணாஹ வசுக்கிரஹ யதிஹி. ஓகே, ஸோ யதி இஸ் ஆஃப்டர் எயிட், வசு அஷ்டவசவஹ, கிரஹ நவகிரஹ. ஸோ த ஸ்பிளிட் இஸ் எயிட் அண்ட் நைன், எயிட் அண்ட் நைன். ஸோ நவ கடின கர்ஷண துரிதச்சாபஜன்மா க்ஷணாத் திசாம் விரதகீங்கிருதைஹி கிருதஹரித்பதி ஸ்வாகதஹ ஜகத்பிரமண கௌதுகோ சலிதராமகீர்த்தியங்கனா பிரயாண பட்டஹத்வனிம் ரதயதி ஸ்ம தாரத்வனிஹி. அத்ர கஷ்டித் பிரஷ்னஹ, சமஸ்தபதஸ்ய லிங்கம் ஞாதும் நியமாஹ சந்திவா. ஸ்ரீ கஹ சமாசஹ இதி ஆதௌ ஞாதவ்யம். த்வந்த்வே தத்புருஷே பரவல்லிங்கம் த்வந்த்வ தத்புருஷயோ, த்வந்த்வ சமாசே தத்புருஷ சமாசே உத்தரபதஸ்ய யல்லிங்கம் ததேவ லிங்கம் பவதி. ஸோ ராஜ்ஞஹ புத்ரஹ ராஜபுத்ரஹ. ஸோ புத்ரஹ இதி புல்லிங்கே. ஸோ தேவ்யாஹ புத்ரஹ தேவீ புத்ரஹ. ஸோ உத்தரபதஸ்ய யல்லிங்கம் த்வந்த்வ சமாசேபி ததேவ லிங்கம். அவ்யயீபாவே லிங்கஸ்ய க்லேஷஹ நாஸ்தி. பஹுவ்ரீஹி சமாசஹ த்ரிலிங்கஹ. ஸோ லிங்கத்ரயே அபி பவதி. விசேஷ்யம் த்ருஷ்ட்வா சமாசஸ்ய லிங்கம் ஞாதவ்யம். அதஹ சாபா ஜன்ம யஸ்ய சஹ. ஸோ கடின கர்ஷண துடித சாப ஜன்மா இத விசேஷனாது தாரத்வனிஹி. அதஹ புல்லிங்கம் கிருதஹரித்பதி ஸ்வாகதஹ இத்யாதி புல்லிங்கே பவதி. So the only thing is in Bahuvrihi where it can be in all three lingas, based on the Visheshya you will have to decide on the linga. In other cases it is fixed. There are a few exceptions. So Keshanchana Shabdanam Vishaye Visheshya Linga Niyamaha Nasti. Kintu Anyatha Linga Vyavastha Sarala Eva Samase. Tatpurushe Dvandve Uttarapadasya Lingam. Bahuvrihau Visheshyam Ashritya Lingam Bhavati. கதாச்சித் விசிஷ்ட நியமஹ பவதி, வெரி ரேர், ஃபேர்லி ரேர். ஸோ அத்ர ஸ்தகயாமஹ. அக்ரே தசரதஹ ஆகச்சதி மிதிலாம் பிரதி. ஸோ அக்ரிம வர்க்கே பஷ்யாமஹ. ஸோ ராமேண ஹரகோதண்ட பங்கஹ அத்ய த்ருஷ்டஹ. धनुर्भङ्गाज्जनितस्य नादस्य वर्णनम् अपि दृष्टवन्तः. विवाहार्थं दशरथस्य आगमनम् अग्रिमसप्ताहे पठामः. लक्ष्मीं तनोतु नितरामितरानपेक्षमं हृद्वयं निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः. सर्वेभ्यः दीपावलीपर्वणः शुभाशयाः.